सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृणुमः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनं विद्याविहीनः पशुः. अस्तु, अस्माकं प्रवर्तमानः विषयः चतुर्थी विभक्तिः. अयं विषयः पूर्वमेव आरब्धः. अद्य तस्य अनुवर्तनं भवति. विषयम् आश्रित्य, विषयम् अवलम्ब्य कांश्चन अभ्यासान् कृतवन्तः. विषयं शीघ्रं समापयितुम् इष्टवती. अद्य त्रिपञ्चाशत्युत्तर एकशतं पुटं पश्यन्तु, 153 पेज् पश्यन्तु. तस्मिन् पुटे षष्ठः अभ्यासः वर्तते. तत्र तादर्ध्ये चतुर्थी इति लिखितमस्ति. षष्ठम् अभ्यासं पश्यन्तु. तत्र स्थूलाक्षरैः तादर्ध्ये चतुर्थी इति लिखितमस्ति. तादर्ध्ये चतुर्थी इत्यस्य अर्थः कः? तादर्ध्ये चतुर्थी वक्तव्या इति एकं वार्तिकमस्ति. चतुर्थी सम्प्रदाने इति पाणिनिसूत्रमस्ति खलु. इत्युक्ते सम्प्रदानसंज्ञा यस्या अस्ति तस्य चतुर्थी विभक्तिः भवति. तद्वक्तुमेव चतुर्थी सम्प्रदाने इति सूत्रमस्ति. तत् सूत्रान्तर्गतं वार्तिकम् इदम्. तस्मिन् अन्तर्गतं वार्तिकम् एकमस्ति, तादर्ध्ये चतुर्थी वक्तव्या. व्याकरणे प्रकरणानि सन्ति खलु, णत्वप्रकरणं, षत्वप्रकरणम्, एवमेव कारकप्रकरणमस्ति. कारकप्रकरणे तादर्ध्ये चतुर्थी विभक्तिः भवति इति उक्तमस्ति. तादर्ध्ये चतुर्थी वाच्या इति वार्तिकं तत्र पाठ्यते. तादर्ध्ये इति सप्तम्यन्तं पदमस्ति. प्रथमान्तं पदं किम्? तादर्ध्यम् इति प्रथमान्तं पदमस्ति. तादर्ध्यम् इति तद्धितान्तं पदमस्ति. विग्रहवाक्यं वक्तव्यमस्ति. कृद्वृत्तिषु, तद्धितवृत्तिषु इत्युक्ते तद्धितान्तपदानाम् अपि विग्रहवाक्यं वक्तव्यं भवति. तादर्ध्यम् इति कथनेन तदर्थस्य भावः तादर्ध्यम्, तदर्थस्य भावः तस्मिन् इति विग्रहवाक्यं वक्तव्यं भवति. तादर्ध्ये इति सप्तम्यन्तं पदमस्ति. अस्य वार्तिकस्य अर्थः कः इति ज्ञातव्यम्. तादर्ध्ये इति कथनेन तस्मिन् प्रयोजने इति अर्थः अस्ति. तस्मिन् प्रयोजने चतुर्थी विभक्तिः भवति. तस्मिन् प्रयोजने इत्युक्ते किमपि प्रयोजनं प्राप्तुं, किमपि वस्तुं प्राप्तुं, यत्किमपि वस्तुं प्राप्तुं, कोऽपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः खलु. किमपि वस्तुं प्राप्तुं कोऽपि जनः किमपि कार्यं करोति चेत् तत् तदर्थम् इति वदामः. अपि च अनेन वार्तिकेन उपकार्योपकारकभावसम्बन्धः उच्यते. उपकार्योपकारकभावसम्बन्धः विवक्षितः अनेन वार्तिकेन. उपकार्योपकारकभावसम्बन्धः इति कथनेन उपकार्यमस्ति, उपकारकमस्ति. उपकार्यम् इति कथनेन उपकारयोग्यम्. उपकार्यम् इति कथनेन तत्र कार्यम् इत्यस्मिन् पदे ण्यत् इति प्रत्ययः अस्ति. कार्यम् इत्यत्र ण्यत् इति कृत् प्रत्ययः अस्ति. रु हलोर् ण्यत् इति सूत्रेण ण्यत् प्रत्ययः क्रू धातुतः विहितः भवति. उपकार्यम् इति कथनेन उपकारयोग्यम् इति अर्थः अस्ति. उपकारकम् इति कथनेन यद् उपकरोति तत् उपकारकम्. उपकार्यं भिन्नम्, उपकारकं भिन्नम्. तादर्ध्ये चतुर्थी इत्यत्र उपकार्य उपकारकभावसम्बन्धः विवक्षितः. अस्य अवगमनार्थम् एकं वाक्यं वदामि. मुक्तये हरिं भजति इति वाक्यमस्ति. मुक्तये इति चतुर्थी विभक्ति रूपमस्ति. मुक्तिः इति प्रथमान्तं खलु. मुक्ति इति प्रातिपदिकात् चतुर्थी विभक्तिप्रत्ययः ञे प्रत्ययस्य योजनेन मुक्तये इति रूपं सिध्यति. मुक्तये हरिं भजति इति वाक्यमस्ति. वस्तुतः वास्तविक अर्थः कः? मुक्तिं प्राप्तुं हरिं भजति. मुक्तेः प्राप्त्यर्थं हरिभजनं क्रियते इति अर्थः अस्ति. तत्र मुक्तिः इति प्रयोजनमस्ति. तदर्थं किं करणीयं? तदर्थं हरेः भजनं क्रियते. मुक्तेः प्राप्त्यर्थं हरेः भजनं क्रियते तत्र मुक्तिः इति प्रयोजनमस्ति अथवा मुक्तिः इति उपकार्यमस्ति. हरिभजनम् इति उपकारकमस्ति, इत्युक्ते हरिभजनं मुक्तिं प्राप्तुम् उपकरोति. मुक्त्यर्थं हरिभजनं क्रियते, मुक्तिं प्राप्तुं हरिभजनं क्रियते इति वक्तुं मुक्तिशब्दात् तादर्थ्यचतुर्थी वाच्या इति वार्तिकेन मुक्तिशब्दात् चतुर्थी विभक्तिः भवति. अतः मुक्तये इति रूपं लेखनीयमस्ति. मुक्तये हरिं भजति इति वस्तुतः वाक्यमस्ति. ईदृशानि अन्यानि वाक्यानि कानिचन वाक्यानि वदामि. कदाचित् चर्चा विवादाय भवति. प्रतिदिनं प्रातः उत्थानम् आरोग्याय भवति. तत्र उपकार्योपकारकभावसम्बन्धः अस्ति. दुर्व्यसनं कदापि सुखाय न भवति. अप्रियवचनं कस्य सन्तोषाय भवति? दुर्जनस्य धनसम्पादनं मदाय भवति. संस्कृतभाषा राष्ट्रैक्याय भवति. एतादृशेषु वाक्येषु उपकार्योपकारकभावसम्बन्धः विवक्षितः, किन्तु अस्माकं पुस्तके भिन्नानि वाक्यानि दत्तानि. तानि वाक्यानि एकवारं परिशीलयाम. पुस्तकं पश्यन्तु, पेज् 153 अस्ति. तादर्ध्ये चतुर्थी इति लिखितमस्ति. षष्ठम् अभ्यासं पश्यन्तु. सूर्यकुमारी भगिनी, भवती दृष्टवती वा?
आम् महोदय.
वदतु.
द्रोणाचार्यः आनयति. द्रोणाचार्यः पुत्राय शापम् आनयति.
आदौ सूचनां पठतु.
यदोदाहरणं रिक्तस्थानानि पूरयत.
उदाहरणत्वेन एकं वाक्यम् अधोभागे लिखितम् अस्ति, तत् पठतु.
द्रोणाचार्यः पुत्राय कुन्तम् आनयति. कुन्तम् इत्युक्ते
आयुधम्. कानिचन पदानि दत्तानि खलु अत्र. पदानि कुन्तं, गदाम् एवं लिखितमस्ति. वदतु.
कुन्तं, स्पियर्, गदं, खड्गं, चापं, गदं, गदां, गदां. रिपिटिशन् अस्ति. धेनुं.
कुन्तः इति पुंलिङ्गशब्दः, गदा इति आकारान्तस्त्रीलिङ्गशब्दः, खड्गः इति अकारान्त पुंलिङ्गशब्दः, चापः इति अकारान्तशब्दः, गदा इत्यपि आकारान्त स्त्रीलिङ्गशब्दः. किन्तु अत्र कर्मपदानि दत्तानि, कुन्तं, गदां, खड्गं, चापं, गदां, धेनुम्. अत्र इमानि पदानि कर्मपदानि भवन्ति. यथा अत्र उदाहरणं दत्तमस्ति तादृशरीत्या एव अन्यानि वाक्यानि अपि लेखनीयानि. द्रोणाचार्यः इति पदं दत्तमस्ति. तत् पदं समस्तपदं. भवती वक्तुमिच्छति वा?
आचार्यः अस्ति. द्रोण न न जानामि भगिनि.
द्रोणाचार्यः कः?
द्रोणाचार्यः
पाण्डवानां गुरुः. पाण्डवकौरवाणां गुरुः द्रोणः. द्रोणः इति पुंलिङ्गशब्दः. स्त्रीलिङ्गे तस्य रूपं भवितुं शक्नोति.
द्रोणी.
द्रोणी इति द्रोणस्य पत्नी द्रोणी भवति. किन्तु द्रोणी इति पात्रभेदः अपि अस्ति. द्रोणी इति पात्रमपि अस्ति. श्रुतवती वा? इत्युक्ते जलम् आनेतुं पात्रं यदस्ति द्रोणी इति वदामः. किन्तु द्रोणस्य पत्नी द्रोणी अपि भवितुं शक्नोति. द्रोणाचार्यः इत्यस्मिन् पदे कर्मधारय समासः अस्ति. द्रोणः इति आचार्यः इति विग्रहवाक्यं वक्तव्यं. तत्र सम्भावनापूर्वपदकर्मधारयसमासः अस्ति. वस्तुतः कर्मधारयसमासः इति वदामः. कर्मधारयसमासः अपि तत्पुरुषसमासस्य एकः प्रभेदः. समासाः चतुर्धा भवन्ति. उत्तरपदप्रधानः तत्पुरुषः इति वदामः. अत्र आचार्य इति पदस्य प्राधान्यमस्ति. आचार्य इति पदस्य प्राधान्यमस्ति इति कारणतः अत्र तत्पुरुषसमासः इत्युक्ते उत्तरपदप्रधानः तत्पुरुषः. तत्पुरुषसमासेषु अपि बहवः प्रभेदाः सन्ति. द्रोण इति विशेषणमस्ति, आचार्य इति विशेष्यमस्ति. विशेषणं विशेष्येण बहुलम् इति एकं सूत्रमस्ति. विशेषणं विशेष्येण बहुलम् इति सूत्रमस्ति. तेन सूत्रेण अस्मिन् पदे कर्मधारयसमासः भवति. कीदृशकर्मधारयसमासः इति अपि वक्तव्यम्. नवप्रकारकाः सन्ति कर्मधारयसमासः. उन्नतवृक्षः, उत्तमपुरुषः इत्यादिषु विशेषणपूर्वपदकर्मधारयसमासः अस्ति. किन्तु अस्मिन् पदे सम्भावनापूर्वपदकर्मधारयसमासः अस्ति. यस्मिन् समस्तपदे सम्भावनापूर्वपदकर्मधारयसमासः अस्ति तत्र विग्रहवाक्ये यदा वयं विग्रहवाक्यं वदामः तदा विग्रहवाक्ये विशेषणात् परम् इति पदं प्रयुज्यते. द्रोणः इति आचार्यः इति वक्तव्यमस्ति. अयोध्यानगरी इति समस्तपदमस्ति चेत् अयोध्या इति नगरी इति विग्रहवाक्यं तत्र भवति. आम्रवृक्षः इति समस्तपदं वदामि चेत् आम्रः इति वृक्षः इति भवति. भवती वदतु हिमालयपर्वतः.
हिमालय इति पर्वतः.
हिमालयः इति पर्वतः. एवं
जातिजातक जाति अस्ति.
पर्वतः इति जातिः अस्ति. हिमालयः इति नाम अस्ति. एतेषु समस्तपदेषु सम्भावना पूर्वपदकर्मधारयसमासः अस्ति. द्रोणाचार्यः, अयोध्यानगरी, आम्रवृक्षः, हिमालयपर्वतः इत्यादिषु सम्भावना पूर्वपदकर्मधारयसमासः अस्ति. विशेषणं विशेष्येण बहुलम् इति सूत्रमस्ति. विशेषणं विशेष्येण समस्यते इति कारणतः कर्मधारयसमासः भवति. कुन्तः इति पुंलिङ्गशब्दः इति मम चिन्तनम् अस्ति. खड्गः इति पुंलिङ्गशब्दः, गदा इति स्त्रीलिङ्गशब्दः, धेनुः इति अपि स्त्रीलिङ्गशब्दः अस्ति. इदानीं द्वितीयं वाक्यं करोतु.
द्रोणाचार्यः दुर्योधनाय खड्गम् आनयति.
दुर्योधनः गदायुद्धे प्रवीणः खलु.
गदाम् आनयति.
द्रोणाचार्यः दुर्योधनाय गदाम् आनयति. दुर्योधनः इति अपि समस्तपदम्. अस्मिन् समस्तपदे बहुव्रीहिसमासः अस्ति. दुष्करं योधनं येन सह इति विग्रहवाक्यं भवति. अस्मिन् समस्तपदे बहुव्रीहिसमासः अस्ति. दुर्योधनाय इति चतुर्थी विभक्त्यन्तं रूपम् अस्ति. दुर्योधन इति प्रातिपदिकम् अस्ति. समस्तपदस्य प्रातिपदिकं दुर्योधन अस्ति. ञे इति चतुर्थी विभक्ति एकवचनप्रत्ययः, ञे प्रत्ययः अस्ति. दुर्योधनायोगः ञे इत्यत्र ञेर्यः इति सूत्रं कार्यं करोति. भवती वक्तुमिच्छति वा?
किं भगिनि?
दुर्योधनाय इति रूपं साधयितुं
दुर्योधनाय दुर्योधन अकारान्त पुल्लिङ्ग अकारान्त प्रातिपदिकमस्ति पुल्लिङ्गः. दुर्योधनयोगः प्रत्यय इत्यनेन आय आदेश भवति वा?
एकवारं स्मारयामि. पूर्वस्मिन् वर्गे अहम् उक्तवती अत्र दुर्योधन इति अकारान्तप्रातिपदिकम् अस्ति अथवा अदन्तम् अङ्गम् अस्ति, अदन्तप्रातिपदिकम् अस्ति. तस्मात् परं ञे इति प्रत्ययः अस्ति. ञे इति कथनेन तत्र ञकारः इति संज्ञकः अस्ति. लशक्वतद्धिते इत्यनेन ञकारस्य इति संज्ञा भूत्वा ये इति एव अवशिष्यते. तत्र एकं विशिष्टं सूत्रमायाति, ञेर्यः इति सूत्रमायाति. तेन सूत्रेण अदन्त अङ्गात् परस्य ञे प्रत्ययस्य स्थाने यकारादेशः भवति, य इति आदेशः भवति. ञेर्यः इति सूत्रेण ये स्थाने य इति आयाति. तत्र स्थितिः का? दुर्योधनायोगः य इति स्थितिः अस्ति. अत्र ञे प्रत्ययस्य स्थाने य आगतः. सुपि च इति सूत्रं किं वदति, ययादि सुप्रत्यये परे अदन्तङ्गस्य दीर्घादेशः भवति इति सुपि च सूत्रेण उच्यते. या इति प्रत्ययः ययादिप्रत्ययः अस्ति. दुर्योधन इति अदन्तम् अङ्गमस्ति इति कारणतः अदन्ताङ्गस्य दीर्घादेशः भवति ययादि सुप्रत्यये परे इति सुपि च सूत्रेण उच्यते. अतः अत्र सुपि च सूत्रेण दुर्योधन इत्यत्र यः अकारः अस्ति तस्य अकारस्य दीर्घादेशः भूत्वा अन्ततो गत्वा वर्णमेलनेन दुर्योधनाय इति रूपं सिद्ध्यति. न्येर्यः इति एकं सूत्रं, सुपि च इति अन्यत् सूत्रं. न्येर्यः इति सूत्रेण न्येस्थाने य आदेशः भवति, सुपि च सूत्रेण दीर्घादेशः भवति, तेन दुर्योधनाय इति रूपं सिद्ध्यति. आनयति इति रूपम् अत्र तिङन्तपदं दत्तमस्ति. आनयति रूपं साधयतु.
उपसर्गतः नीदातुतः तिङ् तिङन्तपदं नी नय भवति, नययोगति नयति.
नी इति धातुः अस्ति. नी धातुः भुआदिगणे अस्ति इति कारणतः शपायति खलु.
आम् छत्रिशब्देन शपायाति. नी नी ने भवति, ने योगः आयोगः यचो यवायावः इत्यनेन अय आयाति, अयोगः आयोगः ति नयति.
उत्तमम्. आ उपसर्गपूर्वकः नी धातुतः वर्तमानकालार्थे प्रथमपुरुषे एकवचनविवक्षायां लट्लकारविवक्षायां तिप् इति प्रत्ययं योजयामः. अन्ततो गत्वा नयति इति रूपं सिद्ध्यति. नी धातुः इगन्तधातुः अस्ति इति कारणतः सार्वधातुक अर्धधातुकयोः सूत्रेण गुणः, यचोयवायावः इति सूत्रेण यान्तवान्तादेशसन्धिः भूत्वा एकारस्य स्थाने अय आदेशः भूत्वा नयति इति रूपं सिद्ध्यति. तत्र अ इति उपसर्गः अस्ति खलु. उत्तमं. गदाम् आनयति इत्यत्र सन्धिकार्यम् अस्ति वा नास्ति वा?
नास्ति.
किमर्थम्?
अश्वर्णः अस्ति चेत्.
उत्तमम्. अग्रिमं वाक्यं करोतु.
द्रोणाचार्यः युधिष्ठिराय खड्गम् आनयति. युधिष्ठिरः अपि समस्तपदं खलु?
समस्तपदं.
बहुरीः वा युधिष्ठिरापि?
अत्र वैशिष्ट्यं किम् इत्युक्ते युधिस्थिरः, युधिस्थिरः इति विग्रहवाक्यं भवति. युद्धे यः स्थिरः अस्ति सः युधिष्ठिरः. अलुक्समासः इति वदामः. युद्धम् इति एकं सुबन्तपदमस्ति. नपुंसकलिङ्गपदं युद्धम् अस्ति. इत्युक्ते अकारान्त नपुंसकलिङ्गपदं युद्धं. तादृश अर्थे एव एकम् अन्यत् पदमस्ति, तत्तु हलन्तशब्दः. युद्ध इति हलन्तशब्दः अस्ति, युद्धवाचकशब्दः एव. युद्धपि युद्धवाचकशब्दः एव. युद्धवाचकशब्दस्य सप्तमीविभक्तिरूपम् अस्ति युधि. साधारणतया समस्तपदेषु पूर्वपदस्य विभक्तिलोपः भवति, किन्तु अस्मिन् पदे विभक्तिलोपः न भवति. इदं समस्तपदम् अलुक्समासस्य कृते उत्तमम् उदाहरणमस्ति. एतादृशम् उदाहरणमेव गविष्ठिरः इति पदमपि अस्ति. युधि स्थिरः, अत्र पदद्वयमस्ति खलु, युधि स्थिरः. स्थिरः इत्यत्र दन्त्यसकारः अस्ति. दन्त्यसकारस्य मूर्धन्यषकारादेशः भवति विशेषसूत्रेण. गवि युधिभ्यां स्थिरः इति एकं पाणिनिसूत्रमस्ति. गवि युधिभ्यां स्थिरः इति सूत्रेण अत्र षत्वं भवति. स्थिरशब्दस्य सकारस्य मूर्धन्यषकारादेशः भवति. व्याकरणे षत्वविधानार्थं बहूनि सूत्राणि सन्ति. आदेशप्रत्ययोः इति सूत्रेणापि षत्वं भवति. एवमेव षत्वप्रकरणे अन्यानि सूत्राणि अपि सन्ति. मूर्धन्यषकारादेशः इति कार्यं कर्तुम् अन्यानि सूत्राणि अपि सन्ति. तेषु इदं सूत्रम् अन्यतमसूत्रमस्ति. गवियुधिभ्यां स्थिरः इति सूत्रेण अत्र स्थिरशब्दे स्थितस्य सकारस्य मूर्धन्यषकारादेशः भवति. अतः युधिष्ठिरः इति रूपं सिद्ध्यति. एवमेव गविष्ठिरः इति पदमपि अनेन सूत्रेण एव निर्मितं भवति. गविष्ठिरः इति कथनेन यः पुरुषः निरन्तरं गवां सेवां करोति, यः पुरुषः निरन्तरं गवां सेवां करोति सः गविष्ठिरः. गवियुधिभ्यां स्थिरः इति सूत्रेण एव गविष्ठिरः युधिष्ठिरः इति पदद्वये षत्वं भवति. युधिष्ठिरः कः?
युधिष्ठिरः पाण्डवानां
ज्येष्ठपाण्डवः.
ज्येष्ठपाण्डवः, ज्येष्ठपाण्डवः इत्यपि समस्तपदमस्ति. पाण्डवानां ज्येष्ठः, ज्येष्ठपाण्डवः. अस्तु, खड्गः इति पुंलिङ्गपदं. भूमभगिनी अग्रे करोतु. एतादृशं पदमेव अलुक् समासस्य कृते एव एकम् अन्यत् पदं वदामि. कण्ठे कालः, कण्ठे कालः इति कथनेन तत्र कण्ठे इति सप्तमी अन्तं पदं यथावत् तिष्ठति. कण्ठे कालः इत्यस्मिन् पदे अपि अलुक् समासः अस्ति, अलुक् प्रकरणम् अस्ति. व्याकरणे प्रकरणानि सन्ति खलु. प्रकरणम् इति कथनेन तत्र एकः एव विषयः तत्र उच्यते तस्मिन् प्रकरणे. अणत्वप्रकरणे सर्वाणि अणत्वसम्बद्धानि सूत्राणि भवन्ति. एवमेव अलुक् प्रकरणे अलुक् समासयुक्तानि पदानि पाठ्यन्ते. कण्ठे कालः इति अपि अलुक् समासस्य उदाहरणम्. इदानीं करोतु.
द्रोणाचार्यः युधिष्ठिराय खड्गम् आनयति. द्रोणाचार्यः अर्जुनाय चापम् आनयति. द्रोणाचार्यः भीमसेनाय गदाम् आनयति.
अर्जुनाय इति उक्तवती खलु. अर्जुनः कः?
अर्जुनः कुन्तीपुत्रः, पाण्डवः.
मध्यमपाण्डवः वा? मध्यमपाण्डवः.
मध्यमपाण्डवः वा?
न भगिनि,
मध्यम.
आम् आम्, सत्यं सत्यं. नैव, परन्तु कुन्तीपुत्रः एव किल. मध्यम पाण्डवः, आल् फैव् पाण्डवः, आल् फैव्. ते सर्वे अपि पञ्चपाण्डवाः, पाण्डवः मध्यपाण्डवः. सत्यं,
मध्यमपाण्डवः. नो चेत् पाण्डुराजस्य तृतीयपुत्रः.
तृतीयपुत्रः.
अर्जुनः इति नाम्ना एकः वृक्षः अपि अस्ति मया श्रुतं. चापम् इति उक्तवती खलु. चापस्य अन्यनाम अस्ति खलु.
चरः.
चापस्य अन्यनाम शरः भिन्नः, धनुः भिन्नः खलु. चापः इत्युक्ते धनुः, बाणः इत्युक्ते शरः. तत्र भेदः अस्ति खलु. भेदः कः? सूर्यकुमारी भगिनी वदतु.
यस्य उपयुज्य बाणं प्रेषयति तत्तु चापम् अस्ति.
चापः धनुः समानम्, शरः बाणः समानम्, द्वयोः अर्थः समानः. संस्कृतभाषया वक्तव्यं चेत् चापः एव धनुः. धनुर्धरः इति अर्जुनस्य नाम अस्ति खलु. धनुर्धरः, धनुर्धारी, धन्वी. धन्वी इति कथनेन
यस्य यस्मिन्
धनुः अस्ति
सः धन्वी.
धन्वी, यस्य धनुः अस्ति सः धन्वी.
मत्वार्धे अस्ति
इनि प्रत्ययः, मधुवर्धे इनि प्रत्ययः अस्ति. अग्रे पठतु.
द्रोणाचार्यः बलि, बलि, बलि ईकारशब्दः.
पत्नी, पत्नी.
तस्मात् पूर्वम् एकं पदमस्ति.
भीमसेनाय गदां आनयति. भीमसेनाय, भीमसेनः कुन्तीपुत्रः एव, पाण्डवः द्वितीयः पुत्रः.
द्वितीयपाण्डवः. भीमसेनस्य अन्यनाम अस्ति वृकोदरः.
वृकोदरः,
वृकोदरः इति समस्तपदमस्ति. तत्र विग्रहवाक्यं कथं वक्तव्यं? कोऽपि वदतु.
तस्य उदरः
उदरमिव.
इतोपि किञ्चित् वक्तव्यम्?
वृक इव भक्षति.
अर्धः तु साधु एव. दर्शना भगिनी भवती वदतु समीचीनतया विग्रहवाक्यम्.
यस्य यस्य उदरः वृक्षस्य उदरः इव अस्ति सः.
वृक्षस्य उदरम् इव उदरं यस्य सः. वृक्षस्य उदरम् इव उदरं यस्य सः. बहुव्रीहिसमासयुक्तेषु पदेषु एवं रीत्या विग्रहवाक्यं वक्तव्यम्. वृक्षस्य उदरम् इव उदरं यस्य सः. वृकोदरः इति भवति. अग्रे षष्ठं वाक्यं करोतु भूमा भगिनी.
द्रोणाचार्यः फली
पत्नी
पत्नी पत्नी सारी सारी पत्नी ईकार स्त्रीलिङ्ग स्त्रीलिङ्गं
नदी शब्दवत्
नद्याः वा
पत्न्यै
अत्र विशेषः अस्ति. विशेषः कः इति शुभदा भगिनी वदति. पत्नी इति दीर्घ ईकारान्तस्त्रीलिङ्गशब्दः. नदीशब्दवत् रूपाणि भवन्ति. पत्न्यै इति रूपं भवति. पत्न्यै इत्यत्र रूपसिद्धिः कथं भवति? पत्न्यै इत्यत्र दीर्घ ईकारान्तशब्दः खलु, अतः नदीशब्दवत् रूपं निष्पादनीयम्. नद्यै पत्न्यै इत्यत्र आण् नद्याः इति सूत्रं कार्यं करोति. शुभदा भगिनी करोतु.
कर्तुं प्रयत्नं करोमि. एक्चुलि विस्मृतवती, परन्तु नदी आण् नद्याः इत्यनेन आडागमः भवति. अपि च तत्र नद्यै आटश्च इति अपि भवति. नद्यै इति ङे इति प्रत्ययः चतुर्थी विवक्षायाम् इति कृत्वा नदी ङे इत्यस्मात् ए इति अवशिष्यते. नदी आण् नद्याः आट् इति भवति. आटश्च इत्यनेन वृद्धिः भूत्वा ए इत्यस्य ऐ इति भवति. नदी ऐ अत्र नदी योग ऐ नद्यै इकोयणचि इति भवति.
अत्र त्रीणि सूत्राणि प्रसक्तानि. नदीसंज्ञकात् अङ्गात् परस्य ङित् प्रत्ययस्य आट् आगमः भवति. पत्नी इति नदीसंज्ञकशब्दः अस्ति. नदीसंज्ञकात् अङ्गात् परं ञ इति प्रत्ययः अस्ति. आण् नद्याः आट् नद्याः इत्यत्र सन्धिकार्यं भवति खलु?
आं भगिनि.
अत्र आट् नद्याः इत्यत्र आण् नद्याः इति सूत्रम् अस्ति खलु. तत्र यरोऽनुनासिकेऽनुनासिको वा इति सूत्रेण अनुनासिकसन्धिः भवति खलु. आट् नद्याः इत्यत्र सन्धिकार्यं कुर्मः चेत् आण् नद्याः इति रूपं सिध्यति. तत्र आट् आगमः भवति. नदीसंज्ञकाङ्गात् परं ङित् इति प्रत्ययः अस्ति इति कारणतः ञे प्रत्ययः ङित् प्रत्ययः अस्ति इत्यतः अत्र आट् आगमः भवति. आण् नद्याः इति सूत्रेण आट् इत्यत्र टकारः इति संज्ञकः केवलम् आ एव अवशिष्यते. आट् इति आगमः भवति. कीदृश आगमः इति वक्तव्यमस्ति. अत्र आट् आगमः टित् अस्ति. टित् अस्ति इति कारणतः आद्यन्तौ टकितौ इति सूत्रेण अयं टित् आगमः प्रत्ययस्य आदौ आयाति. अत्र ञ इति प्रत्ययात् पूर्वम् आट् आगमः भवति इति प्रत्ययस्य अङ्गं भवति अयम् आगमः टित् आगमः. इदानीं वयम् आटश्च इति सूत्रेण आकार एकारयोः मध्ये सन्धिकार्यं कुर्मः चेत् आकार एकारयोः मध्ये आटश्च सूत्रेण वृद्धिः भूत्वा ऐ इति रूपं सिध्यति. तस्मात् पूर्वं नदी इत्यस्य दीर्घ ईकारः अस्ति. नदी योगः ऐ इति स्थितिः अस्ति. तत्र ईकार ऐकारयोः मध्ये इकोयणचि इकः स्थाने यणादेशः भवति. अचि परे इति उक्तमस्ति. अत्र ऐकारः अचुवर्णः अस्ति. इकोयणचि इति सन्धिसूत्रेण यणादेशः ईकारस्य स्थाने भवति इत्यतः पत्न यकारः आयाति. पश्चात् वर्णमेलनेन पत्नीयै इति रूपं सिध्यति. किमर्थं चेत् तत्र अन्ते ऐ इति रूपम् आगतं खलु. पूर्वम् आटश्च सूत्रेण वृद्धिः भूत्वा ऐ इति रूपम् आगतम्. अतः अन्ततो गत्वा वर्णमेलनेन पत्न्यै इति रूपं सिध्यति. तादृशविशेषः अत्र अस्ति. अग्रे सरेम भवती एव करोतु. अग्रिमे पुटे किं दत्तम्?
उच्चैः पठत जानीत च कृष्णाय नमः नमः प्रयोगे चतुर्थी कृष्णाय नमः गङ्गायै नमः लक्ष्म्यै नमः विष्णवे नमः इति नमः इति एकम् अव्ययं नमः इत्यस्य प्रयोगः कुर्मः चेत् तत्र चतुर्थी विभक्तिः भवति अतः कृष्णं नमामि अहं कृष्णं नमामि इत्यस्य कृष्णाय नमः अपि इति अपि वक्तुं शक्यते तदैव गङ्गा इत्यस्य चतुर्थी एकवचनं गङ्गायै इति भवति
भवती किमुक्तवती अहं कृष्णं नमामि कृष्णं नमामि इत्यत्र द्वितीया विभक्तिः अस्ति कृष्णं नमामि इति साधु कृष्णं नमस्करोमि इति अपि साधु भवति कृष्णं नमस्कुर्मः एवं नमस्करोमि इति रूपमपि साधु भवति तत्र कारकद्वितीया विभक्तिः अस्ति कृष्णाय नमः इत्यत्र उपपदचतुर्थीविभक्तिः अस्ति किन्तु कृष्णं नमामि इत्यस्मिन् वाक्ये कारकद्वितीया विभक्तिः अस्ति अनभिहिते कर्मणि द्वितीया इति सूत्रेण तत्र द्वितीया विभक्तिः भवति कृष्णं इत्यस्य द्वितीया विभक्तिः तत्र भवति कृष्णं नमस्करोमि रामं नमस्करोमि देवं नमस्करोमि इत्यादिषु कारकद्वितीया विभक्तिः अस्ति किन्तु कृष्णाय नमः गणेशाय नमः रामाय नमः इत्यादिषु उपपदचतुर्थीविभक्तिः अस्ति एतदर्थमपि पाणिनेः सूत्रमस्ति नमः स्वस्ति स्वाहा स्वधा अलं वषट् योगाच्च इति सूत्रमस्ति नमः स्वस्ति स्वाहा स्वधा अलं वषट् योगाच्च तेन सूत्रेण किमुच्यते येभिः शब्दैः योगे चतुर्थीविभक्तिः भवति नमः इति उपपदमस्ति चेदपि चतुर्थीविभक्तिः भवति इत्युक्ते नमः इति पदस्य योगे अपि चतुर्थीविभक्तिः भवति तस्य कृते उदाहरणानि अत्र दत्तानि अन्येषां पदानां प्रसङ्गे उदाहरणानि न दत्तानि किन्तु अहं वक्तुमिच्छामि स्वस्ति इति उपपदमस्ति चेदपि तत्र चतुर्थी विभक्तिः भवति भवती एकं वाक्यं वक्तुमिच्छति वा
गुरुः वदति शिष्याय स्वस्ति इति आशीर्वादरूपेण तत्र शिष्याय स्वस्ति इति भवति शिष्यस्य
सर्वेभ्यः स्वस्ति प्रजाभ्यः स्वस्ति जनेभ्यः स्वस्ति प्रजाभ्यः परिपालयन्तां वदतु
स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीमहिषाः गोभूचरेभ्यः शुभमस्तु नित्यं लोका समस्ता सुखिनो भवन्तु
स्वस्ति प्रजाभ्यः किमर्थं प्रजाभ्यः इति उक्तमस्ति दर्शना भगिनी वदतु
प्रजा इति स्त्रीलिङ्गे अस्ति प्रजाभ्यः तत्र चतुर्थी विभक्ति बहुवचने अस्ति
प्रजा इति स्त्रीलिङ्गपदमस्ति इति कारणतः स्वस्ति प्रजाभ्यः न्याय्येन इत्यत्र यकारद्वयं लेखनीयं न्यायेन इति नास्ति स्वस्ति प्रजाभ्यः परिपालयन्तां न्याय्येन मार्गेण महीं महिषाः
धन्यवादः
शुद्धिकौमुदी पुस्तके लिखितमस्ति सर्वेभ्यः स्वस्ति प्रजाभ्यः स्वस्ति कुशलम् इत्यस्मिन् अर्थे स्वस्ति इति पदस्य प्रयोगः भवति इति मम अवगमनमस्ति सर्वेभ्यः स्वस्ति इति कथनेन सर्वसम्बन्धी कुशलमस्ति इति अर्थः तृतीयं पदमस्ति तस्मिन्नेव सूत्रे तृतीयं पदं स्वाहा श्रुतवन्तः एव अग्नये स्वाहा अग्नये स्वाहा इति कथनेन स्वाहा इति उपपदमस्ति इति कारणतः अग्नि इति प्रातिपदिकस्य चतुर्थ्यन्तं तत्र वक्तव्यमस्ति अग्नये स्वाहा स्वधा स्वधा इत्यत्रापि चतुर्थीविभक्तिः भवति पितृभ्यः स्वधा अलम् अलम् इति पदस्य प्रयोगः अत्र पर्याप्तम् इत्यस्मिन् अर्थे एव भवति नमः स्वस्ति स्वाहा स्वधा अलं वषट् योगाच्च इत्यस्मिन् सूत्रे अलं शब्दस्य पर्याप्त्यर्थः अस्ति पर्याप्तम् इत्यस्मिन् अर्थे एव तस्य ग्रहणं भवति उदाहरणार्थं भीमः बकाय अलं भीमः दुर्योधनाय अलं रामः रावणाय अलम् इत्युक्ते रावणं निग्रहीतुं रामः अलम् पर्याप्त्यर्थे तत्र अलं शब्दस्य प्रयोगः भवति. तस्मिन्नेव सूत्रे अन्तिमं पदमस्ति वषट्, इन्द्राय वषट् इति वाक्यम्. नमः स्वस्ति स्वाहा स्वधा अलं वषट् योगाच्च इति सूत्रेण चतुर्थी विभक्तिः भवति. एभिः शब्दैः योगे चतुर्थी विभक्तिः स्यात्. अत्र गङ्गा इति पदं लिखितमस्ति
भगिनि. अलम् इति शब्दस्य कृते तृतीया विभक्तेः अपि प्रयोगः भवति खलु?
अलं कोलाहलेन, अलं कोपेन.
पर्याप्तमस्ति, पर्याप्तमिति अर्थे अस्ति तदैव तत्र चतुर्थी विभक्तेः प्रयोगः वा? अन्यः अर्थः अस्ति चेत् तत्र पर्याप्तभिन्न अर्थः अस्ति चेत् तत्र तृतीया विभक्ति इति वक्तुं शक्यते वा इति?
पर्याप्त्यर्थः अस्ति चेत् चतुर्थी विभक्तिः भवति. निषेधार्थे तृतीया विभक्त्याम् अपि तस्य प्रयोगः भवति. अलं कोपेन, अलं क्रोधेन, अलं कोलाहलेन. अत्र गङ्गा इति पदं लिखितम् अस्ति, तत्र परसवर्णरूपं लिखितमस्ति खलु? किमर्थं, किं सूत्रं कार्यं करोति?
तत्र प्रथमं तु नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः भवति. प्रथमः गकारोत्तरवर्ती अकारः, तस्मात् उपरि अनुस्वारः आयाति. तस्मात् परं अनुस्वारः अपदान्त अस्ति इति कृत्वा अनुस्वारस्य ययि परसवर्णः इति सूत्रेण तत्र वर्णः ग इति अस्ति, तस्य अनुनासिकस्वरः ङकारः तत्र आयाति अनुस्वारस्य स्थले. अतः गङ्गा इति भवति, गङ्गा इति भवति.
उत्तमं. गङ्गा इति आकारान्तस्त्रीलिङ्गपदमस्ति. तस्य रूपं कथं साधनीयं? माला लता एवं रीत्या साधनीयं खलु? गङ्गायै इति रूपं सिद्ध्यति. गङ्गायै इति रूपं साधयितुं तत्र याडापः इति सूत्रं कार्यं करोति. भवती वक्तुमिच्छति वा?
आं भगिनि, प्रयत्नं करोमि. तत्र गङ्गा इति आकारान्तस्त्रीलिङ्गरूपम् आबन्त अस्ति इति कृत्वा गङ्गा योगः तत्र चतुर्थीविवक्षायां ङे इति प्रत्ययः, तत्र याडापः इति एकं सूत्रं, तेन याट् इति आगमः भवति. टित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ तत्र याट् इत्यस्य स्थापनं भवति. याट् इत्यस्मात् टकारस्य संज्ञा भूत्वा या इति अवशिष्यते. या योगः ए इति भवति. तत्र वृद्धिरेचि इत्यनेन यै इति भवति. गङ्गा योग यै, गङ्गायै इति प्रकृतिप्रत्ययमेलनं भवति. गङ्गायै इति रूपं भवति.
बहु सम्यक्. एवमेव मालायै, लतायै इति रूपं सिद्ध्यति. अत्र लक्ष्म्यै नमः इति दत्तमस्ति. प्रातिपदिकं किमस्ति? प्रथमा विभक्ति एकवचनरूपं किमस्ति?
प्रातिपदिकं लक्ष्मीः इति तत्र विसर्गसहितरूपं भवति, प्रातिपदिकरूपमपि. अपि च तस्य एकवचनरूपं तु नदीवत् भवति, परन्तु तत्र अपि विसर्गः आयाति, लक्ष्मीः इति भवति. उणादिप्रत्ययेन कृतम् एतं शब्दस्वरूपम् इति कृत्वा लक्ष्मीः इति तत्र विसर्गः तिष्ठति.
प्रथमाविभक्ति एकवचनरूपं, विसर्गः तिष्ठति. लक्ष्मीः इति एव लेखनीयमस्ति. नदी शब्दवत् न लिखामः, तत्र विसर्गः तिष्ठति.
तदपि परन्तु प्रातिपदिके तु नास्ति किल?
प्रातिपदिके विसर्गः नास्ति. प्रथमाविभक्ति एकवचने तत्र लक्ष्मीः इति रूपं लेखनीयं भवति. अस्तु. विष्णुः इति पदमस्ति, उकारान्तपदमस्ति. विष्णुः इत्यस्य अर्थः कः? दर्शना भगिनी वदतु.
तत्र नुक् प्रत्ययः अस्ति, विश् इति धातुः अस्ति. यः सर्वत्र प्रविशति तत् विष्णुः.
व्याप्नोति इति विष्णुः.
व्याप्नोति इति. परन्तु धातुः तु विश् एव अस्ति किल?
धातुः विश् एव अस्ति. सः धातुः व्याप्नोति इत्यस्मिन् अर्थे अस्ति. व्याप्नोति इति विष्णुः
धातु. शकारः मूर्धन्यशकारः वा?
मूर्धन्यशकारः इति उणादिप्रत्ययेन निर्मितं पदम् इति मम अवगमनम् अस्ति. अग्रे सरेम दर्शना भगिनी भवती करोतु अग्रे
यथोदाहरणं रिक्तस्थानानि पूरयत तत्र यथा उदाहरणं यथोदाहरणं रिक्तस्थानानि बहुवचने अस्ति रिक्तस्थानं एकवचनं रूपं पूरयत लोट्लकारः
समस्तपदम् अस्ति रिक्तस्थानं तत्र विशेषणपूर्वपदकर्मधारे समासः अस्ति वदतु
रिक्तं स्थानम् इति
रिक्तं स्थानं नो चेत् रिक्तं च तत् स्थानं च एवमपि वक्तुं शक्यते विशेषणपूर्वपदकर्मधारे समासयुक्तेषु पदेषु द्विधा विग्रहवाक्यं वक्तुं शक्यते रिक्तं स्थानम् इति सरलरीत्या विग्रहवाक्यं नो चेत् रिक्तं च तत् स्थानं च तानि इति अपि वक्तव्यं खलु
आम् सत्यम्
अग्रे वदतु
उदाहरणं कविः कवये नमः तत्र इकारान्त पुंलिङ्गशब्दः अस्ति चतुर्थीविभक्ति कवये अस्ति यतोहि नमः इति उपपदम् अस्ति
कवये इति चतुर्थीविभक्त्यन्तं रूपम् अस्ति शुभदा भगिनी भवती वदतु कवि इति ह्रस्व इकारान्तशब्दः तस्य घिसंज्ञा अस्ति घिसंज्ञक अङ्गस्य नित्यप्रत्यये परे गुणादेशः भवति घेर्निति इति सूत्रेण वदतु
आम् तत्र कवि इति ह्रस्व इकारान्तशब्दः तस्य शेषोघ्यसखी इत्यनेन घिसंज्ञा भवति घिसंज्ञा कृते चतुर्थीविवक्षायाम् ए इति प्रत्ययः घेर्ङिति इति सूत्रेण अङ्गस्य अलोन्त्यस्य इति परिभाषया अन्तिमवर्णस्य गुणः भूत्वा कवे इति भवति कवे योगः ए तत्र एचो यवायावः इत्यनेन कवै ए कवये इति भवति
उत्तमम् आदौ घेर्णिति इति सूत्रेण गुणादेशः भवति तेन कवि इत्यस्य रूपं कवे भवति कवे योगः ये इत्यत्र यचोयवायावः इति सन्धिसूत्रेण केवलम् एकारस्य स्थाने एव ऐ आदेशः भवति तेन कवै इति रूपं भवति कवै योगः ये कवये इति अन्तिमं रूपं सिद्ध्यति वर्णमेलनेन अग्रे दर्शना भगिनी प्रथमं वाक्यं करोतु
पार्थसारथिः पार्थसारथये नमः
पार्थसारथिः कः
पार्थसारथिः अर्जुनः
कृष्णः कृष्णः
पार्थसारथिः कृष्ण पार्थ अर्जुनः
पार्थसारथिः इति समस्तपदमस्ति तत्र विग्रहवाक्यं वदतु
पार्थस्य सारथिः षष्टि विभक्ति षष्ठी तत्पुरुष
षष्ठी तत्पुरुष समासः अस्ति पार्थसारथये नमः पूर्वं शुभदा भगिनी उक्तवती खलु कवये इति उक्तवती खलु एवमेव अत्र पार्थसारथये इति रूपं साधनीयम् अत्र सारथिः इति ह्रस्व इकारान्तशब्दः अस्ति कविशब्दवत् मुनिशब्दवत् अत्रापि पार्थसारथिः इति ह्रस्व इकारान्तशब्दः अस्ति तस्य घिसंज्ञा अस्ति इत्यतः यथा पूर्वं भगिनी साधितवती रूपं तथा एव अत्रापि साधनं भवति अग्रिमं पदं देवर्षिः देवर्षिः अपि समस्तपदमस्ति भवती वदतु विग्रहवाक्यं
देवश्च ऋषयश्च ऋषिः च ऋषिश्च
अर्धमाश्रित्य समस्तपदस्य विग्रहवाक्यं वक्तव्यं नारदः देवर्षिः इति वदामि चेत् देवर्षिः इत्यत्र विग्रहवाक्यं कथं वक्तुं शक्यते
न जाने भगिनि
शुभदा भगिनी प्रयत्नं करोतु
देवानां ऋषिः वा
देवानां ऋषिः इति साधु भवति खलु
देवानां ऋषिः सत्यं
षष्ठी तत्पुरुषसमासः भवितुम् अर्हति खलु
आम्
देवानां ऋषिः इति कथनेन देव इति प्रातिपदिकं स्वीकुर्मः ऋषि इति प्रातिपदिकं स्वीकुर्मः देवयोगः ऋषि इत्यत्र सन्धिकार्यमस्ति कीदृशसन्धिः अस्ति अत्र
अत्र गुणः भवति अपि च उरण् रपरः इत्यनेन रपर् अपि भवति कृत्वा अर् इति भवति देवर्षि इति भवति.
उत्तमम्. आद्गुणः इति सूत्रेण गुणसन्धिकार्यं भवति. समासेषु सन्धिः नित्यः, अतः देवयोगः ऋषिः. देव इत्यत्र अकारः अस्ति, ऋकारः अचुवर्णः अस्ति. आद्गुणः इति सूत्रेण गुणसन्धिकार्यं भवति. अत्र सन्धिः नित्यः. देवर्षिः इति अपि कविः, मुनिः, हरिः इव अत्रापि देवर्षये इति रूपं साधनीयम्. देवर्षये नमः इति अत्र वाक्यं भवति. दर्शना भगिनी अग्रे वदतु.
मनुः उकारान्त पुंलिङ्ग पुंलिङ्गशब्द अस्ति. मनवे नमः इति, गुरवे नमः तथा एव. मननं करोति इति मनुः इति वक्तुं शक्नुमः किं भगिनि?
मनुः इति पदम् अपि उणादिप्रत्ययेन निर्मितम् इति मम अवगमनं. गीतायाम् एकं वाक्यमस्ति खलु, मनवे प्राह, चतुर्थाध्याये एकं वाक्यमस्ति, मनवे प्राह. मनवे प्राह इत्यत्र प्रा उपसर्गपूर्वक आह इति रूपम् अस्ति. आह इति कीदृशं पदम्?
आह वदति इति तत्र लकार.
उत्तमं.
ब्रू इति धातुः किल?
हा, ब्रू धातोः रूपं. विकल्पेन आह इति अपि वक्तुं शक्यते. ब्रवीति जानीमः खलु?
आम्.
ब्रवीति इति लट्लकाररूपमस्ति. अब्रवीत् इति लङ्लकाररूपमस्ति. ब्रू धातोः प्रसङ्गे एव एकं विशिष्टं सूत्रमायाति, तेन आह इति रूपं सिद्ध्यति. मनवे प्राह इति गीतावाक्यमस्ति. भगवद्गीता केन उक्तम्, आदौ कस्य कृते उक्तम्, एतत् सर्वं तस्मिन् अध्याये उक्तमस्ति.
विवस्वते योगम्
वदतु.
इमं इमं किं तत् क्षम्यतां, चतुर्थोऽध्याय श्रीभगवान् उवाच, इमं विवस्वते योगं प्रोक्तवानहम् अव्ययम्.
विवस्वते इति उक्तवती. विवस्वते इति किं रूपम्?
चतुर्थी.
प्रथमान्तं किम् अस्ति?
विवस्वान्.
तत्र प्रातिपदिकं किम् अस्ति?
विवस्वत्.
विवस्वत् इति प्रातिपदिकम् अस्ति. चतुर्थी विभक्त्यन्तं रूपं विवस्वते. अत्र मनवे इति रूपं दत्तमस्ति खलु. गुरुशब्दवत् अस्य रूपं साधनीयं. मनवे, गुरवे. मनवे नमः, गुरवे नमः इति रूपम् अत्र सिद्ध्यति. गुरु इति अपि ह्रस्व उकारान्तप्रातिपदिकम् अस्ति. गुरवे अथवा मनवे इति रूपं साधयितुं तत्र घेर्णिति इति सूत्रेण गुणः भवति. शुभदा भगिनी एकवारं वदतु.
हा, तत्रापि मनु योगः ङे चतुर्थी विवक्षा, चतुर्थी एकवचनस्य विवक्षायां, तदनन्तरं मनु इत्यस्य ह्रस्व उकारान्तः शब्दः इति कृत्वा तस्य घी संज्ञा भवति शेषोघ्य सखी इत्यनेन. घेर्ङिति इत्यनेन तस्य उकारस्य गुणः भूत्वा मनो इति भवति. मनो योगः ए, एचो यवायावः मनव योगः ए मनवे इति भवति.
उत्तमम्. अत्र ओकारस्य स्थाने औ आदेशः भवति इति कारणतः मनवे इति रूपं सिद्ध्यति. गुरु इति ह्रस्व उकारान्तशब्दः, तत्रापि घेरणिति सूत्रेण गुणः, एचोयवायावः इति सूत्रेण गुरु इत्यस्मिन् ओकारस्य स्थाने औ आदेशः भवति इत्यतः गुरवे इति रूपं सिद्ध्यति. मनु अस्ति चेत् मनवे इति रूपं सिद्ध्यति. तत्र सूत्रद्वयं, घेरणिति सूत्रम्, एचोयवायावः इति सूत्रद्वयं स्मर्तव्यम्. अग्रिमं पदं भूमा भगिनी भवती वदतु. अग्रिमं पदं किम् अस्ति?
विवस्वान् एव मनवे प्राह. मनु इक्ष्वाकवे इदानीम्
इक्ष्वाकवे. तत्र विभक्तिः का?
चतुर्थी विभक्ति एव.
प्रथमान्तं किम् अस्ति?
इक्ष्वाकविः
न, इक्ष्वाकुः.
इक्ष्वाकुः. इक्ष्वाकुः. आम्, सत्यं.
गुरवे इव.
सत्यं.
मनवे, गुरवे इव. भूमा भगिनी अग्रे करोतु.
भवान्
पृथिवी वदतु.
पृथिवी, पृथिव्या, ईकारशब्द
नदी शब्दवत् खलु.
पृथ्व्या, पृथ्व्या
सूर्यकुमारी भगिनी भवती करोतु अत्र किं रूपम् आयाति
पृथ्व्यै
पृथिव्यै
पृथिव्यै
पृथिव्यै खलु
पृथिव्यै वकार यकार औकार पृथ्व्यै
नदी अस्ति चेत् नद्यै नमः पृथिव्यै नमः पूर्वं भगिनी उक्तवती नद्यै इत्यत्र कथं रूपं सिद्ध्यति इति नदी इत्यत्र आण्नद्याः इति सूत्रेण आट् आगमः भवति पश्चात् आटश्च सूत्रेण वृद्धि आदेशः अन्तिमसोपाने इको एणचि इति सूत्रेण यणादेशः भवति इत्यतः तत्र नदी शब्दस्य चतुर्थ्यन्तं नद्यै इति रूपं भवति अत्र पृथिवी इति अस्ति खलु अतः पृथिव्यै नमः इति भवति अग्रे भवती करोतु
भवान् भवत् प्रातिपदिकमस्ति भवते
भवते नमः स्त्रीलिङ्गे किं वदामः
भवत्यै नमः
भवती इति नदी शब्दवत् खलु अतः भवत्यै नमः प्रातिपदिकं भवत् अस्ति भवत् प्रातिपदिकस्य अनन्तरं ञ इति प्रत्ययः अस्ति तत्र किं कार्यमस्ति
भवत् योगः ने वर्णमेलनमेव
वर्णमेलनमेव किमपि कार्यं नास्ति भवत् योगः ये भवते तावदेव अग्रे करोतु
भगिनि अत्र भवत् इति शब्दस्य व्युत्पत्तिः अधुना एव पठितवती अतः वदामि वा
वदतु
तत्र भा इति धातुः तस्मात् डवतु इति उणादिप्रत्ययः भातेर्डवतुः इति एकम् उणादिसूत्रं तेन डवतु इति प्रत्ययः तस्मात् अवत् इति अवशिष्यते डकारस्य इत्संज्ञा भवति अपि च उकारस्य अपि इत्संज्ञा भवति भायोगः अवत् इति भवति तदनन्तरं भा तस्य टेः इति सूत्रेण टिलोपः भवति भा इत्यस्मात् टी भागस्य लोपः भवति यतोहि डित्वसामर्थ्यात् अवश्यापि टेर्लोपः तत्र भसंज्ञा नास्ति इति परन्तु तथापि तस्य टी भागस्य लोपः भवति एव तदेव तत्र डित्वसामर्थ्यात् अवश्यापि टेर्लोपः अतः भ हलन्त भकारः योगः अवत् भवत् इति तकारान्तप्रातिपदिकं सिध्यति इति अधुना एव पठितवती अतः
बहु सम्यक् धन्यवादाः भा धातोः रूपं वा कृदन्तरूपम्
आम् भा इति भा दीप्तौ इति
भा धातोः रूपमेव खलु लटीरूपं भाति
भाति हा
भाति अदादिगणे धातुः अस्ति खलु
सत्यं भाति भाति इति दीप्तौ अर्थे अपि भवति इति
सूर्यकुमारी भगिनी करोतु
आं भगिनि धेनुः स्त्रीलिङ्गपदमस्ति उकारान्त भूसंज्ञः अपि अस्ति खलु धेनुयोगः ने प्रत्ययः अस्ति भूसंज्ञः अस्ति चेत् आडागमः भवति वा भगिनि
अत्र घेर्णिति इति सूत्रेण गुणः भवति तत्र गुणः भवति चेत्
धेनो भवति धेनो योगः ये
धेनुः इत्यत्र रूपद्वयमस्ति रूपद्वयमस्ति इति कारणतः धेनवे इति एकं रूपं धेन्वै इति अन्यत् रूपम् अस्ति धेनवे इति रूपं साधयितुं भिन्नानि सूत्राणि धेन्वै इत्यत्र भिन्नानि सूत्राणि धेनवे इति रूपं साधयितुं घेर्णिति यचोयवायावः धेन्वै इत्यत्र मत्यै इव धेन्वै इत्यत्र आण्नद्याः आटश्च इकोयणचि इमानि त्रीणि सूत्राणि प्रवर्तन्ते वस्तुतः रूपद्वयम् अत्र सिध्यति
धेन्वै एण्ड् धेनवे
उत्तमम् अग्रे करोतु
देवता तत्र आकारान्त स्त्रीलिङ्गपदमस्ति देवता देवतायै नमः.
देवतायै नमः. देवतायै, लतायै, मालायै एवं रूपं साधयितुं तत्र किं चिन्तनमस्ति? देवता इति प्रातिपदिकम् अस्ति, न्य इति प्रत्ययः अस्ति, याडापः इति एकं सूत्रमस्ति. तेन सूत्रेण याट् आगमः भवति. याट् आगमः तित् आगमः अस्ति इत्यतः प्रत्ययस्य आदिम अवयवः भवति. तत्र देवतायोगः याट् योगः ये वदतु.
देवतायोगः या ये भवति. देवता या ये भवति तत्र
आकार एकारयोः मध्ये सन्धिकार्यं
वृद्धिसन्धि भवति.
वृद्धिसन्धिः भवति चेत् आकार एकारयोः मध्ये ऐ भवति. तस्मात् पूर्वं यकारः अस्ति खलु, अन्ततो गत्वा वर्णमेलनेन देवता यै.
देवता यै
याडापः. तेन सूत्रेण याट् आगमः भवति. याट् इति कथनेन तत्र टकारः इति संज्ञकः या इति एव अवशिष्यते. या इति कथनेन यकारः आकारः च. तत्र आकार एकारयोः मध्ये आकार एकारयोः मध्ये वृद्धिरेचुसूत्रेण वृद्धिसन्धिकार्यं भूत्वा ऐ आयाति. अन्ततो गत्वा वर्णमेलनेन देवता यै इति रूपं सिद्ध्यति. अवगतं खलु? अग्रिमं वाक्यं.
स्रष्ट अकारान्त
दर्शनभगिनी वदतु.
स्रष्टृ पितावत् मातावत् स्रष्ट्रे इति चतुर्थी विभक्तिः तत्र.
मात्रे नमः एवमेव पित्रे नमः एवमेव स्रष्ट्रे नमः. अत्र प्रातिपदिकं किम् अस्ति?
स्रष्टृ.
स्रष्टृ अस्ति. पुंलिङ्गे स्रष्टा अस्ति. स्त्रीलिङ्गे
स्रष्टा एव.
स्त्रीलिङ्गे
परन्तु कर्ता इत्यस्य कर्त्री इति भवति. माता धात्री भवति.
धाता इति पुंलिङ्गरूपमस्ति, धात्री इति स्त्रीलिङ्गरूपमस्ति. माता पिता इत्यत्र चिन्तनं भिन्नम् अस्ति, किन्तु अत्र भिन्नं चिन्तनमस्ति. इत्युक्ते इमानि पदानि कृदन्तपदानि. अत्र धातुः अस्ति सृज् धातुः. सृज् धातुतः तृच् प्रत्ययस्य योजनेन स्रष्टा इति रूपं सिद्ध्यति. अत्र सृज् धातुः. सृज् धातुतः तृजन्तरूपं स्रष्टा. पुंलिङ्गे स्त्रीलिङ्गे स्रष्ट्री इति भवति. कर्ता अस्ति चेत् कर्त्री भवति. सृज् धातोः प्रसङ्गे इदं रूपं साधयितुम् एकं विशिष्टं सूत्रम् अपेक्षितमस्ति. भवती श्रुतवती वा शुभदा भगिनी? सृज् दृशोर्झल्यमकिति.
सृज् दृशोर्झल्यमकिति तत्र अमागमः भवति आर्धधातुकप्रत्यये परे इति मन्ये, सम्यक् न स्मरामि, परन्तु अमागमः भवति. तत्र सृज् अम् इति आगमः मित् अस्ति इति कृत्वा ऋकारस्य परं भवति. सृ अम् इत्यस्मात् अ इति अवशिष्यते. सृ अ ज अपि च तृच् इत्यस्य तृ त इति किम् अवशिष्यते.
तृ
अवशिष्यते.
अन्ततो गत्वा तत्र ईकोणिचि कार्यमस्ति, पश्चात् अन्यानि कार्याणि भवन्ति. इदं रूपं साधयितुं सृज् दृशोर्झल्यमकिति इति सूत्रेण अम् आगमः भवति इति स्मर्तव्यम्. इदं सूत्रं सृज् धातोः प्रसङ्गे कार्यं करोति, दृश् धातोः प्रसङ्गे अपि कार्यं करोति. दृश् धातोः तृजन्तरूपं किम् अस्ति?
द्रष्टृ इति भवति वा?
द्रष्टा इति भवति खलु. द्रष्टा इति रूपं साधयितुमपि तत् सूत्रम् अपेक्षितमस्ति. स्रष्टा इति तृजन्तरूपम् अस्ति. दर्शना भगिनी अग्रे किम् अस्ति?
धाता धातृ ऋकारान्त पुंलिङ्ग् शब्दः तत्र धात्रे इति भवति. धात्रे नमः.
धाता इति कीदृशं रूपं? तत्र प्रत्ययः कः?
ऋकारान्तशब्दः अस्ति
ऋकारान्तशब्दः अस्ति
तृच् तृच्
तृच् प्रत्ययः अस्ति धा इति धातुः अस्ति धा धातुः भवती जानाति खलु धा धातुः जुहोत्यादिगणे अस्ति
दधाति अस्ति किं
लटीरूपं दधाति अस्ति
लटीरूपं दधाति
धारणपोषणयोः इत्यस्मिन् अर्थे धा धातुः अस्ति धा धातोः परं तृच् इति आर्धधातुककृत् प्रत्ययः आर्धधातुककृत् प्रत्ययः अस्ति तत्र केवलं वर्णमेलनं धायोगः तृच् इत्यत्र चकारः इति संज्ञकः अस्ति चकारः केन सूत्रेण अपगच्छति हलन्त्यं
हलन्त्यं
चकारस्य इत्संज्ञा हलन्त्यं सूत्रेण भवति तृ एव अवशिष्यते धायोगः तृ धातृ धातृ इति प्रातिपदिकम् अस्ति पुंलिङ्गे धाता इति रूपम् अस्ति स्त्रीलिङ्गे
धात्री
धात्री धात्री चतुर्थ्यन्तं किम् अस्ति
धात्र्यै
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 यतोहि तत्र इकारान्त नदीवत् भवति किल धात्र्यै
धात्र्यै धाता धात्री अस्तु अग्रे सरेम दशमं पदं मूर्तिः इति पदं दत्तमस्ति तत्र किं वक्तव्यम्
मूर्तये नमः
मूर्तये नमः मूर्तिः इति कीदृशं पदं शुभदा भगिनी भवती वदतु
मूर्तिः इति स्त्रियां स्त्रियां तिन् इति सूत्रेण स्त्रीत्वविवक्षायां तिन् प्रत्ययः भवति इति मन्ये इति अवशिष्यते धातुः
धातोः प्रसङ्गे बहु किमपि चिन्तनमस्ति तदहं वदामि धातुः अस्ति मूर्च्छा मूर्च्छा इति धातुः मूर्च्छा इति धातुः आदित्यधातुः आदित्यधातुः इत्युक्ते किम्
आकारस्य इत्संज्ञा भवति
आकारस्य इत्संज्ञा भवति मूर्च्छा इति धातुः अस्ति सः धातुः आदित्यधातुः अनुनासिक आकारः अन्ते धातोः अन्ते अस्ति इति कारणतः उपदेशजनुनासिकी इति सूत्रेण तस्य इत्संज्ञा भूत्वा दीर्घ आकारस्य लोपः भवति अपि च अत्र एकं विशेषं कार्यं भवति उपधायाञ्च इति एकं सूत्रमस्ति उपधायाञ्च इति सूत्रं कुत्र आयाति इत्युक्ते यत्र यत्र वयं प्राकृतिकं कार्यं कुर्मः इत्युक्ते प्रत्ययं विना यत् कार्यं भवति तस्य नाम प्राकृतिकं कार्यं धातौ परिवर्तनं भवति पूर्वं वयं पठितवन्तः प्राकृतिकं कार्यं कर्तुं तत्र चत्वारि सूत्राणि उक्तानि अणो नः धात्वादेः शः सः इदुतोनुं धातोः अपि च उपधायाञ्च इति चतुर्थं सूत्रमस्ति णोनः जानीमः धात्वादेः शः सः सूत्रमपि जानीमः इदितोनुं धातोः इत्यपि जानीमः इमानि सूत्राणि औपदेशिकधातुतः लौकिकधातोः रूपसाधनवेलायाम् उपकुर्वन्ति उपधायाञ्च इति सूत्रेण मूर्च्छा इत्यत्र उपधाभूतस्य उकारस्य दीर्घत्वं भवति इति कारणतः मूर्च् मूर्च् इति लौकिकधातोः रूपं सिध्यति वस्तुतः धातुः मूर्च्छा किन्तु उपधायाञ्च इति सूत्रेण उपधाभूत उकारस्य दीर्घत्वं भूत्वा मूर्च् इति लौकिकधातोः रूपं भवति मूर्च् इति रूपं स्वीकृत्य इत्युक्ते लौकिकधातोः रूपं स्वीकृत्य क्तिन् प्रत्ययं योजयामः क्तिन् इत्यस्मिन् अनुबन्धलोपानन्तरं ति एव अवशिष्यते तत्र एकं विशिष्टं सूत्रम् आयाति राल्लोपः इति सूत्रम् आयाति राल्लोपः इति विशेषसूत्रेण मूर्च् इत्यत्र द्वयोः चकारयोः लोपः भवति रेफात् उत्तरयोः छोः लोपः भवति राल्लोपः इति सूत्रेण राल्लोपः इति सूत्रस्य कार्यं कुर्मः चेत् मूर्च् इत्यत्र मूर् इति रूपमेव तिष्ठति छोः लोपः भवति रेफात् उत्तरयोः छोः लोपः भवति राल्लोपः इति सूत्रेण अन्ततो गत्वा मूर् इति रूपं सिध्यति मूर्योगः ति मूर्ति इति प्रातिपदिकं मूर्तिः यथा भवती उक्तवती स्त्रियां क्तिन् इति सूत्रेण क्तिन्नन्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति मूर्तिः इव स्फूर्तिः इति रूपमपि साधयितुं शक्नुमः स्फूर्तिः इत्यत्रापि एतादृशं चिन्तनमेव भवति तत्रापि स्फुर्च्छा इति धातुः आदित्यधातुः उपदेशावस्थायां तस्य रूपं स्फूर्च्छा तत्र उपधायाञ्च इति सूत्रेण दीर्घत्वं भूत्वा स्फूर्च् इति भवति राल्लोपः सूत्रेण छ्वोः लोपः भवति तेन स्फूर् इति रूपं सिद्ध्यति स्फूर्योगः इति स्फूर्ति स्फूर्तिः इति रूपम् अस्य रूपसाधनवेलायाम् उपधायाञ्च इति सूत्रं कार्यं करोति औपदेशिकधातुतः लौकिकधातोः रूपसाधनवेलायाम् उपधायाञ्च सूत्रस्य कार्यं भवति पश्चात् राल्लोपः इति सूत्रेण छ्वोः लोपः भवति इति स्मर्तव्यम् अग्रे सरेम अग्रिमं वाक्यम्
अत्र उपधायाञ्च इत्यनेन उपधाभूत हल् परौ यौ रेफवकारौ ताभ्यां पूर्वस्य इक् वर्णस्य दीर्घादेशः भवति इति कृत्वा तत्र मूर् इति भवति परन्तु धातुः एव मूर् दीर्घः अस्ति खलु कि नास्ति
नास्ति धातुः मूर्च्छा अस्ति ह्रस्व उकारः एव धातौ अस्ति
ओ अस्तु अस्तु हा हा
औपदेशिकधातुतः लौकिकधातोः रूपसाधनवेलायाम् उपधायाञ्च सूत्रेण प्राकृतिकं कार्यं भवति अस्य कार्यार्थं प्रत्ययः अनपेक्षितः
आमाम् अधुना अवगतं तदनन्तरम् उपधायाञ्च इति कार्यं कृत्वा मूर्च् इति धातुः तत्तु लौकिकधातुः तस्मात् तिङन्तप्रत्ययाः उपयुज्य वयं रूपाणि कुर्मः इति
कृत् प्रत्ययः खलु क्तिन् प्रत्ययः
कृत् प्रत्ययः
क्तिन् अस्ति इति कारणतः मूर्तिः क्तवतु अस्ति चेत् मूर्तवान् क्तान्तम् अस्ति चेत् मूर्तः एवं खलु रूपाणि मूर्तः मूर्तवान् मूर्तिः एतेषु त्रिषु समानानि कार्याणि भवन्ति अग्रे सरेम इदानीं दर्शनभगिनी भवती करोतु अग्रे किमस्ति
प्रजापतिः अस्ति इकारान्त पुंलिङ्ग् शब्दः अस्ति प्रजापतये नमः अपि च प्रजापतिः तु समासः अस्ति प्रजानां पतिः इति
प्रजानां पतिः इति कथनेन समासः कः
तत्पुरुष षष्ठी तत्पुरुष
दक्षादयः प्रजापतयः इति वक्तुं शक्यते वा
दक्षादयः प्रजापतयः वक्तुं शक्नुमः इति मन्ये
भूमा भगिनी पार्वती
आसन् एव
प्रजापतिः इति शब्दस्य अर्थः राजा अपि भवितुम् अर्हति वा
आम् यतोहि प्रजानां पति तत्र सः किं
राजा एव प्रजानां पतिः
राजा एव प्रजानां पतिः खलु भूमा भगिनी अग्रे भवती करोतु
माता वक्तुं समये विस्मरामि
चिन्ता मास्तु दर्शना भगिनी भवती करोतु किं
मात्रे नमः
भवती श्रुतवती खलु श्रीमात्रे नमः
श्रीमात्रे नमः
कुत्र वदामः एवं
ललितापूजां
श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी श्लोकं पठामश्चेत् तादृशरीत्या पठामः किन्तु नामार्चनं कुर्मः चेत् श्रीमात्रे नमः वदतु
मात्रे नमः श्रीमात्रे नमः अहं विस्मरामि
दर्शनभगिनी भवती वदतु श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी एवं नामानि सन्ति नमः इति वक्तुमिच्छामः अतः चतुर्थीरूपम् उपयुज्य वक्तव्यं खलु वदतु
भगिनि अहं ललितासहस्रनाम न जानामि परन्तु प्रथमाविभक्तौ भवती वदति चेत् अहं वदामि
श्रीमाता
श्रीमाता श्रीमात्रे नमः
श्रीमहाराज्ञी
श्रीमहाराज्ञी श्रीमहाराज्ञै नमः
उत्तमं श्रीमत् सिंहासनेश्वरी
सिंहासनेश्वर्यै नमः
बहु सम्यक् एवं वक्तव्यमस्ति पारायणं भिन्नम् अस्ति किन्तु नामार्चनं कुर्मः चेत् श्रीमात्रे नमः श्रीमहाराज्ञ्यै नमः श्रीमत् सिंहासनेश्वर्यै नमः एवं वक्तव्यं भवति मातृ इति प्रातिपदिकम् अस्ति ञे इति प्रत्ययः अस्ति मातृ इति प्रातिपदिकं ञे इति चतुर्थी विभक्ति एकवचनप्रत्ययः रूपं साधयतु शुभदा भगिनी भवती करोतु
किं करणीयं भगिनी
श्रीमात्रे नमः इत्यत्र मातृ इति प्रातिपदिकमस्ति न्ये इति प्रत्ययः अस्ति चतुर्थी विभक्ति एकवचनरूपं साधयतु
मातृयोगः ए ङे तस्मात् ए इति अवशिष्यते तत्र यण् सन्धिः भवति अपि च ऋ ए इत्यस्य यण् सन्धिः भूत्वा र इति तत्र रेफः आयाति र रेफः योगः ए मात्रे इति भवति
बहु सम्यक् मातृ इत्यत्र ऋकारान्तप्रातिपदिकम् अस्ति ञे इति प्रत्ययः अस्ति ञे इति प्रत्यये ञकारः इति संज्ञकः ये इति एव अवशिष्यते मातृयोगः ये इत्यत्र इको एणचि इति सूत्रेण इकः स्थाने यण् आदेशः भवति अचि परे अच्वर्णः अत्र एकारः अस्ति इक् प्रत्याहारस्थवर्णः ऋकारः अस्ति ऋकारस्य स्थाने रेफादेशः भवति मातृ इत्यत्र मातृ तत्र रेफादेशः भवति अन्ततो गत्वा वर्णमेलनेन मात्रे इति रूपं सिद्ध्यति अग्रिमे अभ्यासे किं दत्तमस्ति रोचते प्रयोगे चतुर्थी भवति शुभदा भगिनी भवती किं वक्तुमिच्छति अस्मिन् प्रसङ्गे
रुच इति धातुः अस्ति तत्र किञ्चित् वैशिष्ट्यपूर्णः प्रयोगः अत्र रोचते इत्यस्य प्रयोगः कुर्मः चेत् कृष्णाय भक्तिः रोचते इति प्रथमं वाक्यमस्ति भक्तिः किं रोचते भक्तिः रोचते परन्तु तत्र कर्मपदस्य प्रथमा विभक्तिः अस्ति इति मम निरीक्षणमस्ति न जानामि परन्तु यस्मै तत् रोचते तस्य चतुर्थी विभक्ति इति अतः कर्तृपदस्य चतुर्थी विभक्ति कर्मपदस्य प्रथमा विभक्ति भवति रुच इति धातोः योजनेन इति मन्ये
साधु एव रोचते प्रयोगे चतुर्थी विभक्तिः भवति अस्य कृते पाणिनेः सूत्रमस्ति रुच्यर्थानां प्रीयमाणः रुच्यर्थानां प्रीयमाणः इति पाणिनिसूत्रेण रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणस्य चतुर्थी विभक्तिः भवति प्रीयमाणः इति कथनेन कीदृशं पदं तत्
शाणज् पदं
शाणजन्तरूपम् अस्ति प्रीयमाणः प्रीयमाणः इत्यस्य अर्थः प्रीतेः आश्रयः प्रीत्याश्रयः प्रीत्याश्रयः इति कथनेन प्रीयमाणः प्रीयमाणस्य चतुर्थी विभक्तिः भवति रुच्यर्थकधातूनां प्रयोगे रोचते इति पदं कथं साधनीयं रुच् इति धातुः आत्मनेपदधातुः अस्ति रुच् धातोः रोचते रूपं साधयतु
तत्र ते ते आते अते इति रूपाणि भवन्ति अतः रुच् योगः ते रुच् इति गणः कः
भुवादिगणः इति भाति
अस्तु रुच् तर्हि रुच् योगः शप् इति कर्तरि शप् इत्यनेन शप् आयाति तस्मात् अ इति अवशिष्यते रुच् अ ते अ इति पित् अस्ति इति कृत्वा रुच् इत्यस्य पुगन्तलघुपदस्य च ने इत्यनेन रोच् इति लघु इगुपधधातोः गुणः भवति रोच् अ ते रोचते इति अन्तिमं रूपं भवति तत्र
बहु सम्यक् अत्र धातुः रुच् अस्ति रुच् धातुः लघुपदधातुः अस्ति भुवादिगणे अस्ति इति कारणतः शप् आयाति आत्मनेपदि धातुः अस्ति इत्यतः आत्मनेपदसंज्ञकप्रत्ययः आयाति अत्र पुगन्तलघुपदस्य च इति सूत्रेण शप् इति विकरणप्रत्ययं निमित्तीकृत्य रुच् इति धातुरूपी अङ्गे गुणकार्यं भूत्वा रुच् रोच् भवति रोच् योगः आयोगः ते रोचते इति रूपं सिद्ध्यति रुच्यर्थकधातूनां प्रयोगे यः प्रीतेः आश्रयः अस्ति तस्य चतुर्थी विभक्तिः भवति उदाहरणार्थं बालकाय मधुरं रोचते कृष्णाय भक्तिः रोचते बालकाय मधुरं रोचते इति वाक्यं स्वीकुर्मः चेत् तेन मधुरेण तस्मिन् बालके प्रीतिः समुत्पन्ना भवति मधुरेण बालके प्रीतिः समुत्पन्ना भवति अत्र प्रीतेः आश्रयः बालकः प्रीत्याश्रयः अथवा प्रीयमाणः बालकः भवति. अतः बालक इति शब्दस्य सम्प्रदानसंज्ञा भवति. सम्प्रदानसंज्ञा भवति इति कारणतः चतुर्थी सम्प्रदाने इति सूत्रेण सम्प्रदानसंज्ञकशब्दस्य चतुर्थी विभक्तिः भवति. अतः बालकाय मधुरं रोचते इति वक्तव्यं भवति. इत्युक्ते प्रीतेः आश्रयः बालकः अस्ति इत्यतः बालकशब्दस्य सम्प्रदानसंज्ञा भवति. सम्प्रदानसंज्ञा भवति इत्यतः चतुर्थी सम्प्रदाने इति सूत्रेण तस्य चतुर्थी विभक्तिः स्यात्. बालकाय मधुरं रोचते इति वाक्यमस्ति तत्र. अत्र प्रीतेः आश्रयः बालकः इत्यतः तस्य चतुर्थी विभक्तिः. कृष्णाय भक्तिः रोचते तस्मिन् प्रसङ्गे भवती वदतु.
हा, कृष्णाय भक्तिः रोचते अत्र अपि प्रीतेः आश्रयः कृष्णः इति भवति. अतः तस्य सम्प्रदानकारकः भवति,
सम्प्रदानसंज्ञा भवति.
सम्प्रदानसंज्ञा भवति सम्प्रदाने चतुर्थी इति सूत्रं वा तेन सूत्रेण कृष्ण इति शब्दस्य चतुर्थी विभक्ति भवति कृष्णाय इति भवति.
कस्मै रोचते? कृष्णाय रोचते.
तर्हि कर्तृपदं कृष्णः एव वा भक्तिः वा?
कर्तृपदम् इति न वदामः. कृष्ण इति शब्दस्य सम्प्रदानसंज्ञा अस्ति खलु. अत्र रोचते इति पदस्य प्रयोगः अस्ति इति कारणतः एतादृशी स्थितिः. कल्पते, रोचते, क्रुध्यति, दुह्यति इत्यादिषु एतेषां धातूनां प्रयोगे चतुर्थी विभक्तिः सम्भवति. अस्तु, अस्मिन् प्रसङ्गे इतोपि बहु किमपि लिखितम् अस्ति, किन्तु तेषां प्रसङ्गे अग्रिमे सप्ताहे चर्चां करिष्यामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.